एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभायाः गतदिवसीयोपवेशे सांसदः सामयिकविषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। उपवेशे प्रमुखप्रतिपक्षिणो नेपाली कांग्रेसदलस्य सांसदः प्रदीप गिरी अवोचत् देशे राजनीतिक संकटस्य निवारणाय राष्ट्रिय सहमतिः आवश्यकी वर्तते। नेकपा एमाले दलस्य सांसद भेटमणि चौधरी कृषकेषु भूमेः समस्या जटिला स्थिति चर्चयन् कृषकाणां भूमि सम्बद्ध समस्यायाः समाधानाय सर्वकारस्य ध्यानम् आकर्षयत्। नेकपा माओवादी दलस्य सांसद शक्तिबहादुर बस्नेत अगदत् संसदो रक्षाय वर्तमान सर्वकाराय दत्तम समर्थनम दलेन संस्थापितमेव अस्ति। उपवेशे सभामुखेन अग्निप्रसाद सापकोटाविदेन प्रस्तुताय विभिन्नासु समितिषु समावेशनीयानां सदस्यानां नाम्नां प्रवर्धनेन परिवर्तनेन च सम्बद्धाय प्रस्तावाय उपवेशेन सहमति व्यक्ता वर्तते। उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना पक्षतो विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठ राष्ट्रिय सूचना आयोगस्य गत विक्रमाब्दीयं वार्षिक प्रतिवेदनं प्रास्तौत। प्रतिनिधिसभायाः अपर उपवेश आगामिनो वैशाख मासस्य सप्तमे दिवसे मंगलवासरे दिवा एकवादने वस्ता। सर्वोच्च न्यायालयेन न्याय परिषदा सर्वोच्च न्यायालयाय प्रस्तावितस्य न्यायाधीशस्य नहकुल सुवेदिनः योग्यता पर्याप्ता स्थिति निर्णय श्रावितो वर्तते। न्यायाधीशस्य तेजबहादुर केसी इत्यस्य एकल न्यायपीठेन ह्यो नेपालस्य संविधानस्य अनुसारेण प्रस्तावितेन न्यायाधीशेन सुवेदिना न्याय सेवाया सहसचिवस्य उच्च न्यायालयस्य सुमुख्य न्यायाधीशस्य च रूपेण कार्यं विहितं समयावधि द्वयस्यैव संयोजनात् योग्यता पर्याप्ता भवतीति निर्णय श्रावित। सर्वोच्च न्यायालयस्य न्यायाधीशाय सुवेदिनो योग्यता अपर्याप्तेति तर्कमुपस्थाप्य निर्णयस्य निरसनम् अभियाच्य वरिष्ठाधिवक्त्रा डा सुरेन्द्र भण्डारिणा आदेशाभियाचन निवेदनम् पञ्जीकारितमासीत्। सर्वोच्च न्यायालयेन योग्यता पर्याप्तेति निर्णय आदेशाभियाचन निवेदनम् निरस्तीकृतम् वर्तते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री भानुभक्त ढकालः कथयति कोविड उनविंशतेः महामार्या शिथिलस्य राष्ट्रस्य पर्यटनस्य पुनरुत्थान प्रवर्धनयो कृते सर्वकारेण नीतिगत सुधारेण सह व्यय व्यवस्थापनाय प्रयत्यते। नेपाल पर्यटन समित्या ह्य काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायाम् मन्त्री ढकालः अस्मिन् वर्षे आयव्ययकस्य निर्माणावधौ बहुशः सीमिततायाम् सत्यमपि पर्यटनस्य पुनरुत्थानाय आयव्ययक व्यवस्थापनार्थं प्रधानमन्त्रिणा सह विमृष्टमिति अबोधयत्। ह्य आराष्ट्रम् अतिरिक्तेषु 59,500 जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। सहस्रचतुष्टयस्य 77 78 निदर्शनानां पीसीआर विधिना परीक्षणे विहिते 97,174 जनेषु 27,77 निदर्शनानां एन्टीजिन प्रतिरक्षकोत्पादन बलद तत्त्वान्वेषण विधिना परीक्षणे विहिते 63 जनेषु च कोरोना संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। एवमेव ह्य अतिरिक्ताः 38,100 जना कोरोना संक्रमणात् मुक्ताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण इदानीम् नेपाले 16,3,3 सक्रिय संक्रान्ताः जनाः सन्ति। ह्य कोरोना संक्रमणेन अतिरिक्ताः 13 जनाः मृताः इति स्वास्थ्य मन्त्रालयेन ज्ञापितम् अस्ति। एतदनु नेपाले कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 53,000+ प्राप्ता वर्तते। कोरोना संक्रमणस्य संकटात् रक्षणस्य कारणं प्रदर्श्य विद्यालयान् न पिधातुं सम्बद्ध पक्षेण सर्वकारः परामृष्टो वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रालये ह्य आयोजिते विमर्शने सम्बद्ध पक्ष कोरोना संक्रमणस्य संकटस्य न्यूनीकरणाय सावधानतावलम्बनपूर्वकं विद्यालयान् सञ्चालयितुं परामृशत। विमर्शने सहभागिनः अवोचन् कोरोना महामारीं प्रदर्श्य केन्द्र सर्वकारेण विद्यालय पिधान सम्बद्ध निर्णयनस्य अपेक्षया स्थानीय सर्वकारेभ्यो दायित्वं दातव्यम्। कोविड उनविंशतेः नूतन स्वरूपस्य संक्रमणस्य दर्शनमनु सावधानताम् अवलम्बितुं विज्ञाः परामृशन्ति। दृष्टपूर्वस्मात् विषाणुतः तीव्र संक्रमणशील विषाणोः सत्वात् विज्ञैः सावधानताम् अवलम्बितुं परामृष्टं वर्तते। सम्प्रति संक्रमणमिदं बालबालिकासु युवासु 50 न्यूनवयस्कासु व्यक्तिष्वपि दृष्टं वर्तते। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ भाषते नेपालस्य दूरसञ्चार सेवाम् सुलभाम् सुरक्षिताम् च विधातुम् आवश्यक रणनीतेः सुधाराय सर्वकारः तत्परो वर्तते। नेपालस्य सूचना प्रविधेः अवस्थायाः विषये ह्यः काष्ठमण्डपे आयोजिते विमर्शन कार्यक्रमे मन्त्री गुरूङ अगदत् दूरसञ्चार सेवा सम्बद्धान् विधिन् समयानुकूलान् विधातुम् सर्वकारः प्रतिबद्धो वर्तते। मन्त्री गुरूङ नेपालस्य दुर्गम क्षेत्रेष्वपि सेवाम् विस्तार्य सर्वकारेण अग्रिसारतायै वैद्युताङ्कनयुत नेपालस्य संरचनायाः अवधारणायै सहयोगाय दूरसञ्चार सेवा प्रदायक संस्थाः अन्वरुणत। नेकपा एमाले दलस्य नेता पूर्व प्रधानमन्त्री च माधव कुमार नेपालः निगदति दले आलोचनाम् कुर्वद्भ्यः परामर्शान् दत्तवद्भ्यश्च जनेभ्यः शत्रुवत् व्यवहारो न कर्तव्य। द्वितीय प्रदेशीयेन अखिल नेपाल महिला संघेन ह्यो जनकपुर धामनी आयोजिते प्रदेश स्तरीय मेलने नेता नेपालः पश्चात्तन समये नेकपा एमाले दले वर्धमानम् संकटम् आलक्ष्य चिन्ताम् व्यक्तवान्। मेलने दलस्य उपमहासचिव घनश्याम भूषाल अगदत् दले मनो मालिन्यम समूह निर्माणम च वर्धमान स्था ए च रोद्धव्ये। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशा आगामिनो वैशाख मासस्य पञ्चमे दिवसे वस्ता। ह्यस्तन दिवसाय निर्धारिता उपवेशा दलस्य वरिष्ठ नेतुः रामचन्द्र पौडेलस्य मध्यम भ्रातुः गोविन्दराज पौडेलस्य निधनस्य कारणेन स्थगित कृतो वर्तते। उपवेशा आगामिनो वैशाखस्य पञ्चमे दिवसे द्विवादने वस्तेति नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवः कृष्ण प्रसाद पौडेलः ज्ञापयति। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादेवाभिधेन ह्य शोक विज्ञप्तिम् प्रकाश्य पौडेलस्य निधनम् प्रति दुःखम् व्यक्तम् वर्तते। यातायात व्यवस्थापन प्रहरिणा आविश्वम् प्रश्रियमाणम् द्वितीय चरणस्य कोविड उनविंशते संक्रमणम् विचार्य सञ्चेतनाभियानम् प्रारब्धम् वर्तते। राष्ट्रिय मानवाधिकार आयोगेन स्वर्गीय दयाराम परिहार स्मृति मानवाधिकार सम्मानम् वर्षेस्मिन् शवविज्ञाय डाक्टर हरियर वस्ती इत्यस्मै प्रदातुम् निर्णीतम् वर्तते। आयोगस्य ह्यस्तनोपवेशेन डाक्टर वस्ती इत्यनेन सवोत्खनन प्रवृत्ति मानवाधिकाराणाम् नैकेषु अनुसन्धान कार्येषु प्रापितम् महत्वपूर्ण योगदानम् आलक्ष्य अस्मै सम्मानाय निर्णीतमिति आयोगस्य प्रवक्ता डाक्टर टीकाराम पोखरेलः अज्ञापयत्।